इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। वायनाड भूस्खलन सन्दर्भे गृहमन्त्री अमितशाहः उक्तवान् यत् केरलराज्याय पूर्वमेव जुलाई मासस्य त्रयोविंश्यां चतुर्विंश्यां पञ्चविंश्यां च सुरक्षादृशा अतिवृष्टेः सञ्चेतनायाः सूचना प्रदत्ता आसीत्। राज्यसभायाः ध्यानाकर्षण सत्रे श्रीअमितशाहः प्रोक्तवान् यत् एतदतिरिच्य अपि जुलाई षड्विंश्याम् अतोऽपि एका अपरा सुरक्षा सञ्चेतना अतिवृष्टिम् अभिलक्ष्य राज्यशासनाय प्रदत्ता आसीत्। अमुना भणितं यत् आपदुद्धार बलमपि पूर्वमेव तत्र सम्प्रेषितम् आसीत्, परं केरलशासनेन तस्य बलस्य यथोचितं नियोजनं ससमयं नैवाचरितम्, येन जनानाम् उद्धारकार्यमपि ससमयं न जातमिति। गृहमन्त्रिणा प्रोक्तं यत् यदि केरलशासनेन यथाकालं निर्देशान् अनुपाल्य सर्वमेव आचरितम् अभविष्यत तदा मृतकानां संख्या इयति अधिका नैव वर्धिता स्यात्। केरले सुरक्षोद्धारकर्मिभिः वायनाडस्य मुडक्कई मध्ये शवानां निष्कासनं समारब्धमस्ति, यत्र दुरापन्ने भीषणभूस्खलनस्य कारणेन बृहन्मात्रायां जनधनक्षतिः जाता अस्ति। आमान्यते यत् मृत्तिकान्तरे पाषाणखण्डानाम् अधस्ताच्च नैके शवाः निपीडिताः सन्ति। मलप्पुरम जनपदे चालियार नद्याः नैके शवाः निष्कास्यमाणाः सन्ति। ध्येयमस्ति यत् भूस्खलनेन नैके शवाः नद्यां प्रवाहिताः आसन्। साम्प्रतं यावत् अस्यां दुर्घटनायां मृतकानां संख्या समेध्य वर्धतेतराम्। सूचनाप्राप्तिं यावत् द्विशततोऽप्यधिकाः जनाः मृत्युमुपगताः सन्ति, नैके पारिशतं व्रणिताः जाताः, विभिन्नेषु चिकित्सालयेषु उपचाराधीनाः वर्तन्ते। एतदपि सूच्यते यत् अतोऽपि पारिशतं जनाः विलुप्ताः वर्तन्ते, किन्तु एषा संख्या इतोऽपि वर्धितुं शक्नोति। वित्तमन्त्री निर्मला सीतारामणः उक्तवती यत् केन्द्रीय आयव्ययेन विकासः वृत्त्यावसराः कल्याणः निवेशः वित्तीय समेकनम् इत्यादीनां प्राथमिकतासु उत्तमः सन्तुलनः विनिर्मितः। सुश्री सीतारामणः ह्यः राज्यसभायां चतुर्विंशत्यधिक द्विसहस्रं पञ्चविंशत्यधिक द्विसहस्रं केन्द्रीय वित्त संकल्पना विषये उत्तरं ददति स्म। सबका साथ सबका विकास सबका विश्वास सबका प्रयास इत्यादर्शवाक्ये सर्वकारः विश्वसिति इति सा प्रोक्तवती। वित्तमन्त्री सबलं प्रतिपादितवती यत् वित्त संकल्पनायां सहकारी संघवादं अविचल समर्थनं प्राप्तमिति। संघ लोक सेवा आयोगेन यूपीएससी इत्यनेन आईएएस प्रशिक्षु पूजा खेडकरस्य कृते भविष्ये सर्वासु परीक्षासु स्थायिरूपेण निषेधाज्ञा प्रसारिता। यूपीएससी इत्यनेन विज्ञप्तौ घोषितं यत् उपलब्धानाम् अभिलेखानां परीक्षणानन्तरं सुश्री खेडकरं लोकसेवा परीक्षा सीएसई द्वाविंशत्यधिक द्विसहस्रेत्यस्य नियमानाम् उल्लंघनस्य दोषी इति ज्ञातं वर्तते। हमास इत्यंकि गुल्मस्य राजनीतिक नेतुः इस्माइल हनियायाः तेहरान मध्ये हत्या जाता। ईरान देशस्य इस्लामिक रेवोल्यूशनरी गार्ड कॉप्स इत्याख्येन बलेन एकस्मिन् वक्तव्ये प्रतिपादितमस्ति यत् हानिया तस्यैकः अंगरक्षकश्च ईरानस्य राजधान्यां तस्य आवासे एव पञ्चतां प्रापितौ। हनिया ईरान राष्ट्रपतेः मसूद पेजेशकियानस्य शपथग्रहण समारोहे भागं भजितुम् आगतः आसीत्। ध्येयम् अस्ति यत् हानिया हमासातंकी गुल्मस्य पक्षतः भूरि शान्तिवार्तासु सक्रियः अवर्तत। इति वार्ताः।